व्यापारं चतुरानेके विकृतो व्याकुर्वति कुर्वति रुद्राक्षग्रहणं महेशि सततं भागुर्मिकल्लोलिता उत्फुल्लं धवलारविन्दं आधरीकृत्य स्फुरन्ति सदा श्रीकामाक्षि सरस्वती विजयते त्वन्मन्दहासप्रभा कर्पूरद्युतितस्करेण महसा कल्माषयत्याननं श्रीकाञ्चीपुरनायिके पतिरिव श्रीमन्दहासोऽपि ते आलिङ्गत्यतिपीवरां स्तनतटीं बिम्बाधरं चुम्बति प्रौढं रागभरं व्यनक्तिं मनसः धैर्यं धुनीते तराम् वैषद्येन च विश्वतापहरणक्रीडापटीयस्तया पाण्डित्येन पचेलिमेन जगतां नेत्रोत्सवोत्पादने कामाक्षी स्मितकन्दलैस्तव तुलामरोडुमुद्योगिनी ज्योत्स्नासौ जलराशिपोषणतया दूष्यां प्रपन्ना दशाम् लावण्याम्बुजिनी मृणालवलैः शृङ्गारगन्धद्वीप ग्रामण्यश्रुतिचामरैस्तरुणिम स्वाराज्यतेजोङ्कुरैः आनन्दामृतसिन्धुवीचिपृषतैः आस्याब्जहंसैस्तव श्रीकामाक्षि मथानमन्दहसितैः मत्कम्मनकल्मषम् उत्तुङ्गस्तनमण्डलीपरिलचन् माणिक्यहारश्चटा चञ्चच्छोणिमपुञ्जमध्यसरणिं मातः परिष्कुर्वते या वै दग्ध्यमुपैति शङ्करजटा कान्तारवाटिपतत् सर्वापि पयसस्मितद्युतिरसौ कामाक्षि ते मञ्जुळा।